इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः हमास इत्यातंकवादी संघटनेन इजराइल देशे आक्रमणं कृतम् इजराइल देशस्य रक्षा मन्त्रालयेन अपि आतंकिनां स्वदेशे प्रवेशस्य पुष्टिः कृता एतदतिरिक्तं इजराइल देशे शतशः क्षेपणी प्रहारः अपि जातः इजराइल सैन्यदलेन घोषितं यत् गाजा क्षेत्रतः इजराइल देशे पैलेस्टीन देशस्य अनेके उग्रवादिनः प्रविष्टाः सन्ति तावत् सीमाक्षेत्रेष् निवसतः जनान् उद्दिश्य इजराइल देशस्य सैन्येभ्यः तेभ्यः गृहेष् एव स्थातुं निर्देशः दत्तः आक्रमणस्य प्रतिकारे इजराइल देशेन गाजा क्षेत्रे युद्धस्य घोषणा कृता अस्ति अपि च सूच्यते यत् तत्र इजराइल देशे विमानस्थानकानि अन्यानि अपि सैन्यस्थात्रादीनि 5000 क्षेपणीभिः लक्ष्यीकृतानि अभवन् अत एव इजराइल देशस्य रक्षामन्त्री आरक्षित सैन्यदलानि अपि सज्जीकारितवान् अस्ति इजराइल सैन्येन गाजा क्षेत्रे प्रबलं योद्धृ विमान आक्रमणं विहितम् इति संसूच्यते वर्तमानां विषमां स्थितिं समीक्ष्य बेंजामिन नेतन्याहु इत्यनेन तत्र इजराइल देशे आपातकालीन उपवेशनम् आहूय युद्धस्थितेः घोषणा कृता जगतः विविधैः देशैः उत्पादिताम् ईदृशीम् आतंकस्थितिम् आलक्ष्य हमास इत्यस्य भर्त्सना कृता प्रधानमन्त्रिणा नरेन्द्रमोदिना आक्रमणमिदं भर्त्सितम् प्रोक्तं च अस्यां स्थितौ भारतस्य संवेदना च प्रभावित जनान् प्रति विद्यते एकस्मिन् संचार माध्यमे श्रीमोदी अलिखत् यत् वृत्तान्तमिदं श्रुत्वा आघातो जातः भारतं च सर्वविधया इजराइल देशेन सह विद्यते केन्द्रीय गृहमन्त्री अमित शाहः अवादीत् यत् देशात् आतंकवादस्य समूल नाशनस्य समय आगतः सः अवदत् यत् आतंकवादस्य निवारणाय वयं शून्य सहिष्णुतायाः नीत्या सह अग्रे गमिष्यामः गृहमन्त्री गतदिने देहरादून नगरे 49 अखिल भारतीय आरक्षिबल विज्ञान कांग्रेस मंचं संबोधयति स्म सिक्किम राज्ये सहसा समागतेन जलाप्लावनेन संजाता हानिम् आकलयितुम् अन्तर्मन्त्रालयीया समितिः तत्र राज्यं गमिष्यति केन्द्रीय गृहराज्यमन्त्री अजयकुमार मिश्रः अस्यां समितौ कृषिः परिवहन राजमार्ग जलशक्ति ऊर्जा वित्तमन्त्रालयानाम् अधिकारिणः सम्मिलिताः सन्ति प्रधानमन्त्री गृहमन्त्री च सिक्किम मुख्यमन्त्रिणा सह सततं सम्पर्के स्तः अफगानिस्तान देशे प्रबल भूकम्पेन न्यूनातिन्यूनं 20% जना मृता सहस्राधिकाश्च आहता पश्चिम दिशि हेरात नगरात 40 किलोमीटर दूरे 6.3 तीव्रताया भूकंप आगत येन अनेकानि भवनानि पतितानि शताधिक जनाः प्रध्वंस भवने निमग्नाः जाताः एशियाई क्रीडासु भारतेन चीनस्य हांगचौ नगरे साम्प्रतं यावत् 70% पदकानि विजितानि पदकेषु 28 स्वर्णपदकानि 38 रजतपदकानि 41 कांस्य पदकानि सन्ति इदं प्रथमवारम् अस्ति यदा भारतेन एतादृशं कीर्तिमानं संस्थापितम् अवधेयं वर्तते यत् इदं केवलं द्वितीयवारमस्ति यत् यदा भारतं तिसृषु प्रमुख क्रीडासु ओलम्पिक राष्ट्रमण्डल एशियाई क्रीडासु 100+ पदकानि विजितानि इति वार्ताः